यम् समेषम् महजास्वरविदम् शतयस्य शुभः साकमीरते अत्यन्नवाजम् हवनस्य दम् रथमेन्द्रम् ववृत्यामवसे सुभृक्तिभिः स पर्वतो न धरुणेष्वच्युतः सहस्रमोतिस्तविशेषु वावृधे इन्द्रो यद्व्रत्रमवधेन्न देव्रतमुब्जन्नर्णांसि जरहृषाढो अन्धसा स हि द्वरोद्वरिषु पौर ऊधनि चन्द्रबुद्धो मदवृद्धो मनीषिभिः इन्द्रम् तमह्वे स्वपस्यजाधिजामम् हिष्ठरातिम् स हि पप्रिरन्धसः आयम् वृणन्ति दिवि सद्मबर्हिषः समुद्रन्न शुभ्रा अस्वा अभिष्टजः तम् व्रत्रहत्ये अनुतस्थुरोतजशुष्मा इन्द्रमपाता अकृतप्सवः अभिस्मवृष्टिम् वदे अस्य युध्यतो रघ्वेरिपप्रभणे सस्ररोतजाः इन्द्रो यद्वज्रे धृषमाणो अन्धसाभिनद्बलस्य परिधेङ्घ्रिभत्रितः परेङ्घ्रणाचरदिति द्विशेषभोपवृत्त्वे रजसो बुद्धमाशयत् व्रत्रस्य यत्प्रभणे दुर्गृभिष्मनो निजघन्धहन्वोरिन्द्रतञ्जतम् ह्रदन्न हित्वा नृषन्त्योर्मजो ब्रह्माणीन्द्रतपया निवर्धनात् त्वष्टा चित्ते युज्यम् वावृधे शवस्ततः क्षवज्रमभिभोत्योजसम् जघन्वाङ् उहरिभिः संहृतक्रतमिन्द्रवृत्रम् मनुषे गात्वजन्नपः अयच्छथा बाह्वार्वज्रमाजसमधा रजो दिव्या सूर्यन् दृशे बृहत्स्वश्चन्द्रममभद्य दुःख्या अमकृण्वतभिजसारोहणम् दिवः यन्मानुषप्रथना इन्द्रभोतजस्वर्नृषाचो मरुतो मदन्नन योश्चिदस्यामपाम् अहे स्वनादयो जवेद्भिजसा वज्र इन्द्रते वृत्रस्य यद्मद्बधानस्य रोदसीमते सुतस्य शवसाभिनच्छिराः यदिन्विन्द्रपृथिवेदशभुजिरः निविश्वा ततनन्तकृष्टजाः अत्राहते मघवन्विश्रुतम् सहोद्यामनुशवसा बर्हणा अभवत् त्वमस्य पारे रजसो व्यो मनस्वभूत्योजा अवसे दृशन्मनः चकृषे भूमिम् प्रतिमानमोजसोपस्वः परिभोरेष्यादिवम् त्वम् भुवः प्रतिमानम् पृथिव्यारिष्वीरस्य बृहतः पतिर्भूः विश्वमाप्रा अन्तरिक्षम् महित्वा सत्यमद्धारकिरञ्जस्त्वावान् न यस्यद्यावा पृथिवी अनुव्यचो न सिन्धवो रजसो अन्तमानशुः नोतस्ववृष्टिम् मदे अस्य युध्यत एको अन्यच्चकृषे विश्वमानुषक आर्चन्नत्र मरुतस्सस्मिन्नाजौ विश्वे देवासो अमदन्ननुत्वा vratrasya yadbhrashti mata abhadena nitvam indra pratyanan jagantha